शयन्तम् वटस्य पत्रस्य पुटे शयानम् बालम् मुकुन्दम् मनसा स्मरामि वटस्य पत्रे शयनम् मुरारे वस्त्रं कषायं परिधानकाले कल्पान्तकाले शिशुरूपरूपं बालं मुकुन्दं मनसा स्मरामि कृष्णे कलये विचित्रम् उग्रं त्रिरेखाकरणे सुरण्यं सिन्दूरवर्णं दृशशं च सिंहं बालं मुकुन्दं मनसा स्मरामि अर्धं शरीरं नररूपदृष्टम् अर्धं च सिंहं वदनं करालं दैत्यस्य वश्यो निविदारयन्तं बालं मुकुन्दं मनसा स्मरामि गोवर्धनोद्धार विशालवालं गोपगोपी जनमध्य संस्थम् गोपांश्च मध्ये परवेष्ठयन्तं बालं मुकुन्दं मनसा स्मरामि शरीरं जलदे सवर्णं मयूरप्रेक्षये शिरशोभयन्तं वाद्यन्तवेणुं वदने सलिलं बालं मुकुन्दं मनसा स्मरामि ब्रह्मात्मबालं भुवनैकपालं यशो विशालं शिशुकालकालं संसारमाया अतिमोहजालं बालं मुकुन्दं मनसा स्मरामि लीलाकराग्रे तपात्रमिन्द्रम् इन्द्रं महावृष्टिमदं चयन्तं गोपैर्भुजैर्लालितपादपद्मं बालं मुकुन्दं मनसा स्मरामि करारविन्देन पदारविन्दम् मुखारविन्दे विनिवेशयन्तम् वटस्य तस्य पत्रस्य पुटे शयानं आलं मुकुन्दं मनसा स्मरामि वटस्य पत्रे शयनं मुरारे वस्त्रं कषायं परिधानकाले कल्पान्तकाले शेषरूपरूपं बालं मुकुन्दं मनसा स्मरामि।